श्रीगुरुभ्यो नमः. अथ श्रीमद्भागवते तृतीयस्कन्धे पञ्चविंशोऽध्यायः. मैत्रेय उवाच: निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः दयालुशालिनीमाः शुक्ला हि व्याहृतं स्मरन्. ऋषिरुवाच: माखिदो राजपुत्रीत्थम् आत्मानं प्रत्यनिन्दिते भगवांस्ते क्षरो गर्भम् अदूरात् सम्प्रपत्स्यते. ऋतव्रता सुभद्रं ते दमेन नियमेन च तपोद्रविणदानैश्च श्रद्धया तेश्वरं भज. सत्त्वया राहितः शुक्लो वितन्वन् मामकं यशः क्षेत्ता ते हृदय ग्रन्थिम् औदर्यो ब्रह्मभावनः. मैत्रेय उवाच: देवहूत्यपि सन्देशम् गौरवेण प्रजापतेः सम्यक् श्रद्धाय पुरुषम् कूटस्थमभजद्गुरुम्. तस्याम् बहुतिथे काले भगवान् मधुसूदनः कार्दमम् वीर्यमापन्नो जज्ञेऽग्निरिव दारुणे अवादयंस्तदा व्योम्नि वादित्राणि घनाघनाः. गायन्ति तस्मिन् गन्धर्वा नृत्यन्त्यप्सरो अप्सरसो मुदा पेतुः सुमनसो दिव्याः हेचरैरपवज्जिताः. प्रसेदुश्च दिशः सर्वा अम्भांसि च मनांसि च तत्कद्दमाश्रमपदम् सरस्वत्या परिप्लुतम्. स्वयम्भूः साकम् ऋषिभिर्मरीच्याधिरभ्यगात् भगवन्तम् परम् ब्रह्म सत्त्वेनांशेन शत्रुहन् तत्त्वसङ्ख्यान विज्ञप्यै जातम् विद्वानजस्वराट्. सभादयन् विशुद्धेन चेतसा तच्चिकीर्षितम् प्रहृष्यमाणैरसुभिः कद्दमम् चेदमभ्यधात्. ब्रह्मोवाच: त्वया मे पतितिस्तात कल्पिता निर्व्यलीकतः यन्मे सञ्जगृहे वाक्यम् भवान् मानदमानयन् एतावत्येव शुश्रूषा कार्यापि तरिपुत्रकैः बाढमित्यनुमन्येत गौरवेण गुरोर्वचः. इमा दुहितरः सत्यस्तव वत्स सुमध्यमाः सर्गमेता प्रभावैः स्वैर् गृहयिष्यन्ति नैकधा. अतस्त्वम् ऋषिमुख्येभ्यो यथाशीलम् यथा रुचि आत्मजा परिदेह्यङ्ग विस्तृणीः यशो भुवि. वेदाहमाद्यम् पुरुषमवतीर्णम् स्वमायया भूतानाम् शेवधिम् देहम् बिभ्राणम् कपिलम् मुने. ज्ञानविज्ञानयोगेन कर्मणामुद्धरंश्च यः हिरण्यकेश पद्माक्षः पद्ममुद्रा पदाम्बुजः. एष मानविते गर्भम् प्रविष्टः कैटभार्दनः अविद्या संशयग्रन्थिम् छित्त्वा गाम् विचरिष्यति. अयम् सिद्धगणाधीशः सङ्ख्याचार्यैः सुसम्मतः. लोके कपिल इत्याख्याम् दन्ता ते कीर्तिवर्धनः. मैत्रेय उवाच: अथाश्वास्य जगत्स्रष्टा कुमारैः सह नारदः हंसो हंसेन यानेन स्वधामापत्यपद्यत. गते शरधुतौ क्षत्तः कद्दमस्तेन चोदितः यथोदितम् स्वदुहितृः प्रादाद् विश्वसृजाम् ततः. मरीचये कराम् प्रादाद् अनसूयामथात्रये श्रद्धामङ्गिरसे यच्छत् पुलस्त्याया हविर्भुवम्. पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीं ख्यातिं च भृगवे यच्छत् वासिष्ठायाप्यरुन्धतीम् अथर्वणे ददाक्षान्तिं यया यज्ञो वितन्यते पिप्रश्रभान् कृतोद्वाहान् सदारान् समलालयत् ततस्त ऋषयक्षत्रः कृतदारा निमन्त्र्यतम् प्रातिष्ठन्नन्दमापन्नाः स्वं स्वमाश्रममण्डलम् स तावतीर्णम् त्रियुगमाज्ञाय विभुदश्रभम् विविक्त उपसङ्गम्य प्रणम्य समभाषत अहो पापच्यमानानाम् निरये स्वैरमङ्गलैः कालेन भूयसा नूनम् प्रसीदन्तीह देवताः बहुजन्मविपाकेन सम्यग् योगसमाधिना द्रष्टुं यदन्ते यतयः शून्यागारेषु यत्पदम् स एव भगवानद्य हेळनं न गणयनः गृहेषु जातो गाम्याणां यस्वानां पक्षपोषणः स्वीयं वाक्यं मृतं कर्तुम् अवतीर्णोऽसि मे गृहे चिकीषुर्भगवच्छर्मा भक्तानामभिवर्धनः तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव यानि यानीह रोचन्ते स्वजनानामरूपिणः त्वां सूरिभिस्तत्त्वबुभुत्सया सदाभिवादार्हणपादपीठम् ऐश्वर्यवैराग्येशो विबोध वीर्यश्रिया पूर्णमहं प्रपद्ये परं प्रधानं पुरुषं महान्तं कालं कविं त्रिवृतं लोकपालम् आत्मानुभूत्यानुगतप्रपञ्चं स्वच्छन्दशक्तिं कपिलं प्रपद्ये तं त्वानुपृच्छेद्य पतिं प्रजानां त्वयावतीर्णेन उताप्तकामः परिव्राजां पदवीम् आस्थितोऽहं चरिष्ये त्वां हृदि युञ्जन्विशोकः श्रीभगवानुवाच मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके अथादनि मया तुभ्यं यदवोचं मृतं मुने एतन्मे जन्मलोकेऽस्मिन् मुक्षूणां दुराशयात् प्रसङ्ख्यानां तत्त्वानां समत्वायात्मदर्शिनाम् एष आत्मपथो व्यक्तो नष्टः कालेन भूयसा त्वं प्रवर्तयितुं देहमिमं विद्धि मया भृतं गच्छ कामं मया पृष्ठो मयि संन्यस्तकर्मणा जित्वा सुदुज्जयं मृत्युम् अमृतत्वाय मां भज मामात्मानं स्वयं ज्योतिः सर्वभूतगुहाशयम् आत्मन्येवात्मान् वीक्ष्य विशोको भयमृच्छसि विश्वमेतद्धि शास्त्रेण विज्ञायात्मानमीश्वरम् मुनिःशान्तमनोवाक्यस्तर्हि न ख्यात्युपप्लवः मात्र आध्यात्मिकीं विद्यां शमणीं सर्वकर्मणाम् वितरिष्येयया चासौ भयं चातितरिष्यति मैत्रेय उवाच एवं समुदितस्तेन कपिलेन प्रजापतिः दक्षिणीकृत्य तं प्रीतो वनमेव जगामः व्रतं स आस्थितो मौनम् आत्मैकशरणो मुनिः निःसङ्गो व्यचरत् क्षोणीम् अनग्निरनिकेतनः मनो ब्रह्मणि युञ्जानो यत्तत् सदसतः परम् गुणावभारो गुणावभासे विगुण एकभक्त्यानुभाविते निरहङ्कृतिर्निर्ममश्च निर्द्वन्द्वसमदृक् स्वदृक् प्रत्यग्रशन्तधीरः प्रशान्तोर्मिदिवोदधिः वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् अपश्यत् सर्वभूतानि भगवत्यपि तत्मनि इच्छाद्वेषविहीनेन सर्वत्र समतेतसा भगवद्भक्तियोगेन प्राप्तो भगवतीं गतिम् इति श्रीमद्भागवते तृतीयस्कन्धे पञ्चविंशोऽध्यायः श्रीकृष्णार्पणमस्तु।